तत्त्वार्थ सूत्रम, मोक्ष शास्त्रम, आचार्य उमा स्वामी कृतम, मंगलाचरणम्।
मोक्ष मार्गस्य नेतारम् भेतारम् कर्म भूभृताम् ज्ञातारम् विश्वतत्त्वानां वंदे तद्गुणलब्धये।
पीठिका।
त्रैकाल्यं द्रव्यषटकं नवपदसहितं जीवषट्कायलेश्याः पञ्चान्यचास्तिकाया व्रतसमिति गति ज्ञानचारेत्रभेदाः इत्येतन् मोक्षमूलम् त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः। सिद्धे जयप्रसिद्धे चौविहाराहणाफलं पत्ते वन्दिता अर्हन्ते वोच्छम् आराहणाकमसो। उज्जोवणमुज्जवणम् निवाहणं साहणं चणे क्षरणं दंसणणाण चरित्तं तवाण माराहणा भणिया।
अथ तत्त्वार्थ सूत्रे मोक्ष शास्त्रे प्रथमोऽध्यायः।
सम्यग् दर्शन ज्ञान चारित्राणि मोक्ष मार्गः। तत्त्वार्थ श्रद्धानं सम्यग् दर्शनं तन्निसर्गा दधिगमाद्वा जीवा जीवाश्रवा बन्ध संवर निर्जरा मोक्षास्तत्त्वम्। नाम स्थापना द्रव्य भाव तस्तन्यासः प्रमाण नयै रधिगमः निर्देश स्वामित्व साधनाधिकरण स्थिति विधानतः सत्संख्या क्षेत्र परशन कालांतर भावाल्प बहुत्वैश्च मति श्रुतावधि मनः पर्यय केवलानि ज्ञानम् तत् प्रमाणे आदि परोक्षम् प्रत्यक्ष मन्यत मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् तदिन्द्रिया निन्द्रिय निमित्तम् अवग्रहे हावाय धारणाः बहु बहुविध क्षिप्रा निःसृता नुक्त ध्रुवाणां फेतराणां अर्थस्य व्यञ्जनस्य वग्रहः न चक्षुरनिन्द्रियाभ्याम् श्रुतं मतिपूर्वं द्वयनेक द्वादशभेदम् भावप्रत्ययो वधिर्देव नारकाणां क्षयोपशम निमित्तः षड्विकल्पः शेषाणां ऋजु विपुलमति मनः पर्ययः विशुद्ध्य प्रतिपाताभ्याम् तद्विशेषः विशुद्धि क्षेत्र स्वामी विषयेभ्यो वधि मनः पर्ययोः मति श्रुतयोर् निबन्धो द्रव्येष्व सर्व पर्यायेषु रूपेष्व वधेह तदनन्तभागे मनः पर्ययस्य सर्व द्रव्य पर्यायेषु केवलस्य एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः मति श्रुतावधयो विपर्ययश्च सदसतो रविशेषाद् यदृच्छोपलब्धे ऋणमत्तवत् नैगम संग्रह व्यवहारर्जु सूत्र शब्द समभिरूढै वं भूतानयाः इति तत्त्वार्थसूत्रे मोक्षशास्त्रे प्रथमोऽध्यायः अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे द्वितीयोऽध्यायः औपशमिक शायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्व मौदयिक पारिणामिकौ च द्विनवाष्टा दशैक विंशति त्रिभेदा यथाक्रमम् सम्यक्त्व चारित्रे ज्ञान दर्शन दान लाभ भोगोपभोग वीर्याणि च। ज्ञानाज्ञान दर्शन लब्ध्यश्चतुस्त्री त्रि पञ्च भेदाः सम्यक्त्वचारित्र संयमा संयमाश्च। गति कषाय लिंग मिथ्यादर्शना ज्ञाना संयता सिद्ध लेश्यास चतुश्चतुस्त्रये कैकैकैक षड्भेदाः। जीव भव्या भव्यत्वानि च उपयोगो लक्षणम् सद्विविधोष्ट चतुर्भेदः संसारिणो मुक्ताश्च समनस्का मनस्काः संसारिणस्त्रसस्थावराः पृथिव्यक्तेजो वायु वनस्पतयः थावराः द्वीन्द्रियादयस्त्रसाः पञ्चेन्द्रियाणि द्विविधानि निर्वर्त्युपकरणे द्रव्येन्द्रियम् लब्ध्युपयोगौ भावेन्द्रियम् स्पर्शन रसन घ्राण चक्षुः श्रोत्राणि स्पर्श रस गंध वर्ण शब्दास्तदर्थाः श्रुत मनिन्द्रियस्य वनस्पत्यन्ता नामेकम् कृमि पिपीलिका भ्रमर मनुष्यादीना मेकैक वृद्धानि संगिनः समनस्काः विग्रहगतौ कर्मयोगः अनुश्रेणी गतिः अविग्रहा जीवस्य विग्रहवती च संसारिणः प्राच्चतुर्भ्यः एकसमया विग्रहा एकं द्वौ त्रीन वा नाहारकः। सम्मूर्छन गर्भोपादा जन्म सचित्त शीत संवृताः सेतरा मिश्राश्चैकशस्त द्योनयः। जरायुजाण्डज पोतानां गर्भः देवनारकाणा मुपपादः। शेषाणां सम्मूर्छनम् औदारिक वैक्रियकाहारक तैजस कार्मणानि शरीराणि परं परं सूक्ष्मम्। प्रदेशतो संखेय गुणं प्राक् तैजसात् अनन्तगुणे परे अप्रतिघाते अनादि सम्बन्धे च सर्वस्य तदादीनि भाज्यानि युगपदे कस्मिन्ना चतुर्भ्यः निरुपभोग मन्त्यम् गर्भ सम्मूर्छनज माद्यम् औपपादिकम् वैक्रियकम् लब्धि प्रत्ययं च तैजसमपि शुभम् विशुद्धमव्याघाति चाहारकम् प्रमत्त संयतस्यैव। नारक सम्मूर्छिनो नपुंसकानि न देवाः शेषास्त्रिवेदाः औपपादिक चरमोत्तम देहासंखेय वर्षायुषो नपवर्त्यायुषः। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे द्वितीयोऽध्यायः। अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे तृतीयोऽध्यायः। रत्न शर्करा बालुका पङ्क धूम तमो महातमः प्रभा भूमयो घनाम्बु वाताकाश प्रतिष्ठाः सप्ताधोधः। तासु त्रिंशत् पञ्चविंशति पञ्चदश दश त्रि पञ्चोनैक नरक शतसहस्राणि पञ्च चैव यथाक्रमम्। नारका नित्या शुभतर लेश्या परिणाम देह वेदना विक्रियाः परस्परो दीरेत दुःखाः संक्लिष्टा सुरो दीरेत दुःखाश्च प्राक्चतुर्थ्याः तेष्वेक त्रिसप्तदश सप्तदश द्वाविंशति त्रयस्त्रिंशत सागरोपमा सत्त्वानां परास्थितिः जम्बूद्वीप लवणोदादयः शुभनामानो द्वीपसमुद्राः द्विर्द्विर् विष्कम्भाः पूर्वपूर्व परिक्षेपिणो वलयाकृतयः तन्मध्ये मेरुनाभिर्वृत्तो योजन शतसहस्र विष्कम्भो जम्बूद्वीपः भरत हैमवत हरि विदेह रम्यक हैरण्यवतैरावत वर्षाः क्षेत्राणि तद्विभाजिनः पूर्वापरायता हिमवन महाहिमवन निषधनील रुक्मी शिखरिणो वर्षधर पर्वताः हेमार्जुन तपनीय वैडूर्य रजत हेममयाः मणिविचित्र पार्श्वा उपरि मूले च तुल्यविस्ताराः पद्म महापद्म तिगिञ्छ केसरी महापुण्डरीक पुण्डरीका हृदास्तेषामुपरि प्रथमो योजन सहस्राया मस्तदर्ध विषकम्भो रदः दशयोजना वगाहः तन्मध्ये योजनम् पुष्करम् तद्विगुण द्विगुणा रदाः पुष्कराणि च तन्निवासिन्यो देव्यः श्री रि धृति कीर्ति बुद्धि लक्ष्म्यः पल्योपमस्थितयः ससामानिका परिषत्काः गङ्गा सिन्धु रोहित रोहितास्या हरित हरिकान्ता सीता सीतोदा नारी नरकान्ता सुवर्ण रूप्यकूला रक्ता रक्तोदाः सरितस्तन् मध्यगाः द्वयोर्द्वयोः पूर्वाः पूर्वगाः शेषास् त्वपरगाः चतुर्दश नदी सहस्र परिवृत्ता गंगा सिन्ध्वादयो नद्यः भरतः षड्विंश पञ्च योजन शत विस्तारः षट्चैकोनविंशति भागा योजनस्य तद्विगुण द्विगुण विस्तारा वर्षधरा वर्षा विदेहांताः उत्तरा दक्षिणा तुल्याः भरतैरावतयोर्वृद्धि रासौ षटसमयाभ्यामुतसर्पिण्य वसर्पिणीभ्या ताभ्यामपरा भूमयो वस्थिताः एक द्वित्रि पल्योपमा स्थितयो हैमवतक हारिवर्षक दैवकुर्वकाः तथोत्तराः विदेहेषु संख्येय कालाः भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशत भागः द्विर्धातकी खंडे पुष्करार्धे च प्राङ्मानुषोत्तरान् मनुष्याः आर्या म्लेच्छाश्च भरतैरावत विदेहाः कर्म भूमयोऽन्यत्र देवकुरूत्तर कुरुभ्यः नृस्थिति परावरे त्रिपल्योपमान्तर्मुहूर्ते तिर्यग् यो निजानां च इति तत्त्वार्थसूत्रे मोक्षशास्त्रे तृतीयोऽध्यायः अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे चतुर्थोऽध्यायः देवाश्चतुर्णिकायाः आदितस्त्रिषु पीतान्तलेश्याः दशाष्ट पञ्चद्वादश विकल्पाः कल्पोपन्नपर्यन्ताः इन्द्र सामानिक त्रायस्त्रिंश पारिषदात्मरक्ष लोकपालानीक प्रकीर्णकाभियोग्य किल्विषिकाश्चैकशः त्रायस्त्रिंश लोकपालवर्ज्या व्यन्तर्ज्योतिषकाः इन्द्र सामानिक त्रायस्त्रिंश पारिषदात्मरक्ष लोकपालानीक प्रकीर्णकाभियोग्य किल्विषिकाश्चैकशः त्रायस्त्रिंश लोकपालवर्ज्या व्यन्तर्ज्योतिषकाः पूर्वयोर्द्वीन्द्राः शेषाः स्पर्शरूप शब्द मनः प्रविचाराः परे प्रविचाराः भवनवासिनोऽसुर नाग विद्युत् सुपर्णाग्नि वातस्तनितो दधि द्वीप दिक्कुमाराः व्यन्तराः किन्नर किं पुरुष महोरग गन्धर्व यक्ष राक्षस भूत पिशाचाः ज्योतिषकाः सूर्या चन्द्रमसौ ग्रह नक्षत्र प्रकीर्णक तारकाश्च मेरु प्रदक्षिणा नित्यगतयो नृलोके तत्कृतः कालविभागः बहिरवस्थिताः वैमानिकाः कल्पोपन्नाः कल्पातीताश्च उपर्युपरि सौधर्मैशान सानत्कुमार माहेन्द्र ब्रह्म ब्रह्मोत्तर लान्तवकापिष्ठ शुक्र महाशुक्र शतार सहस्रारेश्वानत प्राणतयोरारणाच्युत योर्नवसु ग्रैवेयकेषु विजय वैजयन्त जयन्तापराजितेषु सर्वार्थसिद्धौ च स्थिति प्रभाव सुख द्युति लेश्या विशुद्धीन्द्रिया वधि विषयतोधिकाः गति शरीर परिग्रहाभि मानतो हीनाः पीत पद्म शुक्ल लेश्या द्वित्रिशेषेषु प्राग्रैवेयकेभ्यः कल्पाः ब्रह्मलोकालया लौकान्तिकाः सारस्वतादित्य वन्यरुण गर्दतोय तुषिता व्याबाधा रिष्टाश्च विजयादिषु द्विचरमाः औपपादिक मनुष्येभ्यः शेषास्तिरे यज्ञोनयः स्थितिरसुर नाग सुपर्ण द्वीप शेषाणाम् सागरोपम त्रिपल्योपमार्ध हीनमिताः सौधर्मैशानयोः सागरोपमेधिके सानत्कुमार माहेन्द्रयोः सप्त त्रिसप्त नवैकादश त्रयोदश पञ्चदशभिरधिकानि तु आरणाच्युता दूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थ सिद्धौ च अपरा पल्योपममधिकम् परतः परतः पूर्वा पूर्वानन्तरा नारकाणाञ्च द्वितीयादिषु दशवर्षसहस्राणि प्रथमायां भवनेषु च व्यन्तराणाञ्च परापल्योपमा मधिकम् ज्योतिष्काणाञ्च तदष्टभागोपरा लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् इति तत्त्वार्थसूत्रे मोक्षशास्त्रे चतुर्थोऽध्यायः अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे पञ्चमोऽध्यायः अजीवकाया धर्मा धर्मा काश पुद्गलाः द्रव्याणि जीवाश्च नित्यावस्थितान्य रूपाणि रूपिणः पुद्गलाः आ आकाशा देक द्रव्याणि निष्क्रियाणि च असंख्येयाः प्रदेशाः धर्माधर्मैक जीवानाम् आकाशस्यानन्ताः संख्येया संख्येयाश्च पुद्गलानाम् नाणोः लोकाकाशेव गाहः धर्माधर्मयोः कृत्स्ने एकप्रदेशादिषु भाज्यः पुद्गलानाम् असंख्येय भागादिषु जीवानाम् प्रदेश संहार विसर्पाभ्याम् प्रदीपवत् गति स्थित्युपग्रहौ धर्माधर्मयो रूपकारः आकाशस्यावगाहः शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् सुख दुख जीवित मरणोपग्रहाश्च परस्परोपग्रहो जीवानाम् वर्तना परिणाम क्रियाः परत्वापरत्वे च कालस्य स्पर्श रस गन्ध वर्णवन्तः पुद्गलाः शब्द बन्ध सौक्ष्म्य स्थौल्य संस्थान भेद तमश्छाया तपोद्योत वन्तश्च अणवः स्कन्धाश्च भेद संघातेभ्यः उत्पद्यन्ते भेदादणुः भेद संघाताभ्याम् चाक्षुषः सद् द्रव्यलक्षणम् उत्पाद व्यय द्रव्ययुक्तं सत् तद्भावाव्ययं नित्यम् अर्पिता नर्पित सिद्धेह स्निग्ध रुक्षत्वाद बंधः न जघन्य गुणानां गुणसाम्ये सदृशानां द्वयधिकादि गुणानां तु बन्धेधिकौ पारिणामिकौ च गुणपर्ययवद् द्रव्यम् कालश्च सो नन्तसमयः द्रव्याश्रया निर्गुणा गुणाः तद्भावः परिणामः इति तत्त्वार्थसूत्रे मोक्षशास्त्रे पञ्चमोऽध्यायः। अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे षष्ठोऽध्यायः। कायवाङ्मनः कर्मयोगः स आश्रवः शुभः पुण्यस्य शुभः पापस्य सकषाय कषाययोः साम्परायिकीर्या पथयोः इन्द्रिय कषायाव्रत क्रियाः पञ्चचतुः पञ्च पञ्चविंशति संख्याः पूर्वस्य भेदाः तीव्र मन्द ज्ञाताज्ञात भावाधिकरण वीर्य विशेषेभ्यस्तद्विशेषः अधिकरणं जीवाजीवाः आद्यं संरम्भ समारम्भारम्भ योगकृत कारितानुमत कषाय विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकषः निर्वर्तना निक्षेप संयोग निसर्गा द्विचतुर् द्वित्रिभेदाः परम् तत्प्रदोष निन्नव मासर्यान्तराया सादनोपघाता ज्ञानदर्शना वरणयोः दुःख शोक तापाक्रन्दन वध परिदेवनान्यात्म परोभयस्थान्य सद्वेद्यस्य भूत वृत्त्यनुकम्पा दान सराग संयमादि योगः शान्तिः शौचमिति सद्वेद्यस्य केवली श्रुतसङ्घ धर्म देवावर्णवादो दर्शनमोहस्य कषायो दयात् तीव्रपरिणामश्चारित्रमोहस्य बहवारम्भ परिग्रहत्वं नारकस्यायुषः माया तैर्यग योनस्य अल्पारम्भ परिग्रहत्वं मानुषस्य स्वभाव मार्दवं च निहशील व्रतत्वं च सर्वेषां सराग संयम संयमासंयमा काम निर्जरा बालतपांसि दैवस्य सम्यक्त्वं च योगवक्रता विसंवादनं चाशुभस्य नाम्नः तदविपरीतं शुभस्य दर्शनविशुद्धिर् विनय संपन्नता शील व्रतेष्वनति चारो भीष्ण ज्ञानोपयोग संवेगौ शक्तितस्त्याग तपसी साधु समाधिर वैयावृत्यकरण मर्हदाचार्य बहुश्रुत प्रवचन भक्तिरावश्यका परिहानिर मार्ग प्रभावना प्रवचन वत्सलत्वमिति तीर्थंकरत्वस्य परात्मनिंदा प्रशंसे सद सद गुणोच्छादनोद भावने च नीचैर्गोत्रस्य तद विपर्ययो नीचैर्वृत्यनुसेकौ चोत्तरस्य विघ्नकरण मन्तरायस्य इति तत्त्वार्थ सूत्रे मोक्ष शास्त्रे षष्ठोऽध्यायः अथ तत्त्वार्थ सूत्रे मोक्ष शास्त्रे सप्तमोऽध्यायः हिंसा नृतस्तेया ब्रह्म परिग्रहेभ्यो विरतिर्व्रतम् देश सर्वतोणु महती तस्थैर्यार्थं भावनाः पञ्च पञ्च वाङ्मनो गुप्तीर्या दाननिक्षेपण समित्यालोकितपान भोजनानि पञ्च क्रोध लोभ भीरुत्व हास्य प्रत्याख्यानान्यनुवीचीहाषणं च पञ्च शून्यागार विमोचितावास परो परोधाकरण भैक्षशुद्धि सद्धर्माविसंवादाः पञ्च स्त्रीराग कथाश्रवण तन्मनो हराङ्गनिरीक्षण पूर्वरतानुस्मरण वृषेष्टरस स्वशरीर संस्कार त्यागाः पञ्च मनोज्ञा मनोज्ञेन्द्रिय विषय राग द्वेषवर्जनानि पञ्च हिंसा दिश्विहा मुत्रापाया वद्यदर्शनम् दुःखमेव वा मैत्री प्रमोद कारुण्य माध्यस्थानि च सत्व गुणाधिक क्लिश्यमानाविनेषु मैत्री प्रमोद कारुण्य माध्यस्थानि च सत्व गुणाधिक क्लिश्यमाना विनेयेषु जगत्काय स्वभावौ वा संवेगवैराग्यार्थम् प्रमत्तयोगात् प्राणव्यपरोपणम् हिंसा असदभिधान मन्वृतम् अदत्तादानम् स्तेयम् मैथुन मब्रह्म मूर्छा परिग्रहः निःशल्यो व्रती अगार्य नगारश्च अणुव्रतो गारी दिग्देशा नर्थदण्डविरति सामायिक प्रोषधोपवासोपभोग परिभोग परिमाणातिथिसंविभागव्रत सम्पन्नश्च मारणान्तिकीं सल्लेखनां जोषिता शङ्का कांक्षा विचिकित्सान्यदृष्टि प्रशंसा संस्तवाः सम्यग् दृष्टे रतिचाराः व्रतशीलेषु पञ्च पञ्च यथाक्रमम् बन्धवदच्छेदातिभारारोपणान्न पाननिरोधाः मिथ्योपदेश रहो व्याख्यान कूटलेखक्रिया न्यासापहार साकार मन्त्रभेदाः तेन प्रयोग तदाहृतादान विरुद्ध राज्यातिक्रम हीनाधिकमानोन्मान प्रतिरूपक व्यवहाराः परविवाह करणे त्वरिका परिग्रहीता परिग्रहीता गमनानंग क्रीड़ा काम तीव्राभिनिवेशाः क्षेत्र वास्तु हिरण्य सुवर्ण धन धान्य दासी दास कुप्य प्रमाणातिक्रमाः ऊर्ध्वाधस्तिर्यग् व्यतिक्रम क्षेत्र वृद्धि स्मृत्यन्तराधानानि आनयन प्रेष्य प्रयोग शब्द रूपानुपात उद्गल शेपाः कन्दर्प कौत्कुच्य मौखर्या समीक्षाधिकरणोपभोग परिभोगा नर्थक्यानी योग दुष्प्रणिधानादर स्मृत्यनुपस्थानानि अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादान संस्तरोपक्रमणानादर स्मृत्यनुपस्थानानि सचित्त सम्बन्ध सम्मिश्राभिषव दुःपक्वाहाराः सचित्त निक्षेपापिधान परव्यपदेश मासर्यकालातिक्रमाः जीवित मरणाशंसा मित्रानुराग सुखानुबन्ध निदानानि अनुग्रहार्थम् स्वस्याति सर्गोदानम् विधि द्रव्य दात्रि पात्र विशेषात् तद्विशेषः इति तत्त्वार्थसूत्रे मोक्षशास्त्रे सप्तमोऽध्यायः अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे अष्टमोऽध्यायः मिथ्यादर्शनाविरति प्रमादकषाय योगा बन्धहेतवः सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते सबन्धः प्रकृतिस्थित्यनुभाग प्रदेशास्तदविधयः आद्यो ज्ञानदर्शनावरण वेदनीय मोहनीयायुर्नाम गोत्रान्तरायाः पञ्च नव द्वयष्टाविंशति चतुर्द्वि चत्वारिंशद् द्वि पञ्च भेदा यथाक्रमम् मति श्रुतावधि मनः पर्यय केवलानाम् चक्षु रचक्षुरवधि केवलानाम् निद्रा 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 प्रचला 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 स्त्यान गृध्यश्च स्त्यान गृध्यश्च सदसद वेद्ये। दर्शन चारित्र मोहनीया कषाय वेदनीयाख्यास् त्रिद्विनव षोडश भेदाः सम्यक्त्व मिथ्यात्व तदुभयान्यकषाय कषायौ हास्य रत्यरति शोक भय जुगुप्सा स्त्री पुन्नपुंसक वेदा अनन्तानुबन्ध्य प्रत्याख्यान प्रत्याख्यान संज्वलन विकल्पाश्चैकशः क्रोध मान माया लोभाः नारक तैर्यज्ञोन मानुष दैवानी गति जाति शरीरांगोपांग निर्माण बंधन संघात संस्थान संहनन स्पर्श रस गंध वर्णानु पूर्व्या गुरु लघूप घात परघाता तपोद्योतो छवास विहायो गतयः प्रत्येक शरीर त्रस सुभग सुस्वर शुभ सूक्ष्म पर्याप्ति स्थिरादेय यशः कीर्ति सेतराणि तीर्थंकर त्वंच उच्चैर् नीचैश्च दान लाभ भोगोपभोग वीर्याणां आदितस्ति श्रणा मंतरायस्य च त्रिंशत सागरोपम कोटि कोट्यः परास्थितिः आदितस्ति श्रणा मंतरायस्य च त्रिंशत सागरोपम कोटि कोट्यः परास्थितिः सप्ततिर् मोहनीयस्य विंशतिर् नाम गोत्रयोः त्रयस्त्रिंशत् सागरोपमान्यायुषः अपरा द्वादश मुहूर्ता वेदनीयस्य नाम गोत्रयो रष्टौ शेषाणा मंतर मुहूर्ता विपाकोऽनुभवः स यथा नाम ततश्च निर्जरा नाम प्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाः स्थिताः सर्वात्मप्रदेशेष्वनन्ता नन्तप्रदेशाः सदवेद्य शुभायुर्नाम गोत्राणि पुण्यम् अतोऽन्यत् पापम् इति तत्त्वार्थसूत्रे मोक्षशास्त्रे अष्टमोऽध्यायः अथ तत्त्वार्थसूत्रे मोक्षशास्त्रे नवमोऽध्यायः आस्रवनिरोधः संवरः सगुप्ति समिति धर्मानुप्रेक्षा परीशः जय चारित्रैः तपसा निर्जरा च सम्यग योग निग्रहो गुप्तिः ईर्या भाषैषणादान निक्षेपोत्सर्गाः समितयः उत्तमशमा मार्दवार्जव शौच सत्य संयम तपस्त्यागा किञ्चन्य ब्रह्मचर्याणि धर्मः अनित्याशरण संसारैकत्वान्यत्वा शुच्याश्रव संवर निर्जरा लोकबोधि दुर्लभ धर्म स्वाख्यातत्वानु चिंतन मनुप्रेक्षाः मार्गाच्यवन निर्जरार्थं परिशोढव्याः परीशहाः शुत्पिपासा शीतोष्णदंशमशक नाज्ञारति स्त्री चर्या निषद्या शय्याक्रोशवधयाचनालाभ रोगतृणस्पर्श मलसत्कार पुरस्कार प्रज्ञा ज्ञानादर्शनानि सूक्ष्म सांपराय छदमस्थ वीतरागयोश्चतुर्दश एकादश जिने बादर सांपराये सर्वे ज्ञानावरणे प्रज्ञा ज्ञाने दर्शन मोहांतराय योरदर्शनाभौ चारित्र मोहे नाज्ञारति स्त्री निषद्याक्रोश याचना सत्कार पुरस्काराः वेदनीये शेषाः एकादयो भाज्या युगपदे कस्मिन्नैको न विंशतेह सामायिकच्छेदोपस्थापना परिहार विशुद्धि सूक्ष्म सांपराय यथा ख्यातमिति चारित्रम् अनशनावमौदर्य वृत्तिपरिसंख्यान रसपरित्याग विविक्तशय्यासन कायक्लेशा बाह्यं तपः प्रायश्चित्त विनय वैयावृत्य स्वाध्याय व्युत्सर्ग ध्यानान्युत्तरम् नव चतुर्दश पञ्च द्विभेदा यथाक्रमम् प्राध्यानात् आलोचना प्रतिक्रमण तदुभय विवेक व्युत्सर्ग तपश्छेद परिहारोपस्थापनाः ज्ञान दर्शन चारित्रोपचाराः आचार्यो पाध्याय तपस्वी शैक्ष्य ग्लान गण कुल संघ साधु मनोज्ञानां वाचना पृच्छनानु प्रेक्षामनाय धर्मोपदेशाः बाह्याभ्यन्तरो पद्योः उत्तम संहननस्यै काग्रचिन्ता निरोधो ध्यानमान्तरमुहूर्तात् आर्तरौद्र धर्म्य शुक्लानि परे मोक्षहेतु आर्त ममनोज्ञस्य संप्रयोगे तदविप्रयोगाय स्मृति समन्वाहारः विपरीतं मनोज्ञस्य वेदनायाश्च निदानं च तदविरत देशविरत प्रमत्त संयतानां हिंसानृतस्तेय विषय संरक्षणेभ्यो रौद्रमविरत देशविरतयोः आज्ञापाय विपाक संस्थान विचयाय धर्म्यम्। शुक्ले चाद्ये पूर्वविदः परे केवलिनः पृथकत्वैकत्ववितर्क सूक्ष्मक्रिया प्रतिपाति व्युपरत क्रिया निवर्तिनी त्रयेक योग काय योगा योगानां एकाश्रये सवितर्क विचारे पूर्वे अविचारं द्वितीयं वितर्कः श्रुतं विचारोर्थ व्यञ्जन योग संक्रांतिः सम्यग् दृष्टि श्रावक विरतानंत वियोजक दर्शन मोह शप कोप शम कोप शांत मोह शपक क्षीण मोह जिनाह क्रमशो संखेय गुण निर्जराह पुलाक बकुश कुशील निर्ग्रंथ स्नातका निर्ग्रंथाः संयम श्रुत प्रतिसेवना तीर्थ लिंग लेश्योपपाद स्थान विकल्पतः साध्याः इति तत्वार्थ सूत्रे मोक्ष शास्त्रे नवमोऽध्यायः। अथ तत्वार्थ सूत्रे मोक्ष शास्त्रे दशमोऽध्यायः। मोह छायाज ज्ञान दर्शनावरणांतराय छायाच केवलम् बंध हेत्वा भाव निर्जराभ्याम कृष्ण कर्म विप्रमोक्षो मोक्षः औपशमिकादि भव्यत्वानाञ्च अन्यत्र केवल सम्यक्त्व ज्ञान दर्शन सिद्धत्वेभ्यः तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् पूर्वप्रयोगा दसंगत्वाद् बन्धच्छेदात् तथा गति परिणामाच आविद्ध कुलाल चक्रवद व्यपगत लेपाला वुवदे रंडवीज वदग्नि शिखावच्च धर्मास्तिकाया भावात् क्षेत्र काल गति लिंग तीर्थ चारित्र प्रत्येक बुद्ध बोधित ज्ञानावगाहनांतर संख्याल्प बहुत्वतः साध्याः इति तत्वार्थ सूत्रे मोक्ष शास्त्रे दशमोऽध्यायः। समापन। अक्षर मात्रा पद स्वरहीनं व्यञ्जन संधि विवर्जित रेफं साधु विरत्र मम शमितव्यं को न विमुह्यति शास्त्र समुद्रे। तत्वार्थ सूत्रस्य स्वाध्यायस्य फलम् दशाध्याये परिच्छिन्ने तत्वार्थे पठिते सति फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः। ग्रंथकारस्य परिचयं तत्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितं वंदे गणीन्द्र संजात मुमा स्वामी मुनीश्वरम्। ग्रंथस्य विषयस्य परिचयम् पढ़म चौके पढ़मम् పంచమే జాణి పుగ్గలం తచ్చ ఛహ సప్తమేహి ఆసవ అఠమే వంధనా దౌవం నవమే సంవర్ణిజ్జర దహమే మోఖం వియాణేహి ఇహ సత్త తచ్చ భణిదం దహ సుత్తే మునివరిం దేహిం జంసక్కైతం కీరై జంచణ సక్కైత హేవ సద్దహణం సద్దహమాణో జీవో పావై అజరామరం ఠాణం తవయరణం వయధరణం సంజమ శరణం చ జీవదయాకరణం అంతే సమాహి మరణం చౌగై దుఃఖం నివారే అర్హంత భాసియత్థం గణహర్ దేవేహి గంథియం సవ్వం పణమామి భక్తి జుత్తో సుదణాన మహోవయం శిరసా గురువో పాంతువో నిత్యం జ్ఞాన దర్శన నాయకాః చారిత్రార్ణవ గంభీరాః మోక్ష మార్గోపదేశకః కోటిశతం ద్వాదశం చైవ కోట్యో లక్షాణ్యశీతిస్త్ర్యధికాని చైవ పంచాశదష్టౌ చ సహస్ర సంఖ్య మే తదశ్రుతం పంచ పదం నమామి ఇతి తత్వార్థ సూత్రాపర నామ మోక్ష శాస్త్రం సమాప్తం.